So all of you recite 15 chapter Bhagavad Gita. Shri Bhagavan Uvacha Urdhva Mula Madha Shakam Ashvattham Prahuravyayam Chandam Shriyasya Parmani Yastam Veda Sa Veda Ved Adashrotam Prasita Sashya Shaka Guna Pravidra Vishaya Pravada Adashya Mulana Chantatani Dharmanubandhini Manushya Loke Narupamasye Adato Parabhyate Nato Na Chade Na Cha Sampratishta Ashwatmane Anasu Viruta Mulam Asanga Shastrena Virena Chitva Tatavadam Tat Parimargitavyam Yasmin Gatana Nivartanti Bhuya Tameva Chadyam Purusham Prapadye यता प्रवृत्ति प्रसृता पुरामी मानमोहादिक संग दोषा अध्यात्म नित्या विविध कामा वंदे विमुक्ता सुख दुख संगे पश्यन्त्य मूढ़ा पद पाव्ययन्त नाथ नाशयते सूर्यो कशशांको न पावका यद्गत्वा न निवर्तन्ते तद्धामा परम मम ममैवांशो जीवलोके जीवभूता सनातनः मनः शस्त्राणि क्रियाणि कर्तृत्वानि कर्षति शरीरं यदवाप्नोति यच्चाभिप्रामतीश्वरः गृहीत्वैतानि संयाति वायुर्गन्धानि वाशय स्तोत्रं चक्षुस्पर्शनं च रसनं प्राणमेव च अधिष्ठाय मनश्चाय विषयानुपसेवते उत्तापन्तं चितं वापि भुञ्जानं वा गुणान्वितं विमूढानानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषा यतन्तो योगिनः शयनं पश्यन्त्यात्मान्यवस्थितं यतन्तो व्यक्तात्मानो नैनं पश्यन्त चेतसो जगद्भासयते किलम् यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धिमामकम् गामा विश्य च भूतानि धारयाम्यामोजसा उष्णानि औषधि सर्व सोमो भूत्वा रसात्मकः अहम् वैश्वानरो भूत्वा प्राणिना देहमाश्रितः प्राणप्राणसमायुक्ता हच्छाम्यगम् चतुर्विधम् सर्वस्य चाहम् मृदुसंज्ञविश्वो पदस्मृतिर्ज्ञानमोहनम् च वेदेश सर्वैरहमेव वेद्यो वेदार्थकृद्वेदमिदेव चाहम् वामिमो पुरुषलोके शरदेव च शरत् सर्वाणि भूतानि भूतः सोऽक्षर उच्यते उत्तमा पुरुषस्मन्या ोत्तमेवमसम्मूढो जानाति पुरुषोत्तमम् स सर्वविदभश्रीमा सर्वभावेन बालक भूयतमम् शास्त्रम् इदम्युक्तम् मयानग एतद्बुद्धबुद्धिमान् च श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः हरे कृष्ण हरे कृष्ण